एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। राष्ट्रिय स्वतन्त्र दलस्य सभापतिपदे रवि लामिछाने निर्विरोधम् निर्वाचितोऽस्ति। चितवन जनपदे सञ्चल्यमाने महाधिवेशने सभापति पदस्य कृते लामिछाने विधेयेन एव प्रत्याशिताया प्रस्तुते पश्चात् लामिछाने सभापतिपदे निर्विरोधम् निर्वाचितो वर्तते इति रासपा दलस्य केन्द्रीय निर्वाचनायोगस्य प्रमुख भुवन केसी अज्ञापयत्। चितवन जनपदस्य भरतपुर नगरे जायमानस्य रासपा दलस्य प्रथम राष्ट्रिय महाधिवेशनस्य अन्तर्गतम् अद्य प्रातः अष्टवादनात् मतदानम् जायमानम् वर्तते। मतदाने आसन्न सहस्र चतुष्टयम् मतदातारः निर्धारिताः वर्तन्ते। येषाम् कृते मतदानाय अष्टघण्टात्मक कालः अपेक्षिष्यते इति अनुमितम् वर्तते। एकोनशतस्य केन्द्रीय सदस्यानाम् कृते मतदानम् जायमानम् अस्ति इति दलस्य निर्वाचनायोगेन ज्ञापितमस्ति। अत्रान्तरे ह्य सम्पन्नम् दलस्य महाधिवेशनस्य आन्तरसत्रम् सम्बोधयन् सभापति रवि लामिछाने दलाभ्यन्तरे समूहोपसमूहान्न निर्मातुम् प्रतिनिधिम् निर्दिष्टवान् वर्तते। सभापति लामिछाने मतदाने स्वविवेकम् प्रयोक्तुम् महाधिवेशनस्य प्रतिनिधिन् अनुरुद्धवान् अस्ति। तदवसरे सभापति लामिछाने विवादेन विना स्वच्छम् स्वस्थम् निष्पक्षम् च महाधिवेशनम् सम्पाद्य इतिहासम् निर्मातुम् सर्वान् आह्वयत्। अत्रान्तरे रासपा दलेन सामाजिक लोकतन्त्रम् मूल सिद्धान्तस्य रूपेण अंगीकर्तुम् घोषणा विहिता वर्तते। दलसभापतिना रवि लामिछाने विधेयेन ह्य आन्तरसत्रे प्रस्तुते राजनीतिक प्रतिवेदने प्रस्तावे च रासपा दलम् सामाजिक लोकतन्त्रस्य पक्ष अस्ति, प्रत्यक्ष निर्वाचित कार्यकारिणः शासन प्रणाल्यः पक्षपोषणम् करिष्यते च इति उद्घोषः विहितः आसीत्। विशेष न्यायालयेन एमाले दलस्य उपाध्यक्षम् विष्णुप्रसाद पौडेलम् सप्तदिवसान् न्यायिक निग्रहणे संस्थाप्य अनुसन्धातुम् सम्पत् शुद्धिकरणानुसन्धान विभागाय अनुमतिर्दत्तास्ति। विशेष न्यायालयस्य सदस्यानाम् नारायण प्रसाद पौडेलस्य, हेमन्त रावलस्य, उमेश कोइराला विधस्य च न्यायपीठेन पौडेलम् सोमवासरादारभ्य सप्तदिनानि न्यायिक निग्रहणे स्थापयितुम् अनुमतिर्दत्तास्ति। एतत्पूर्वम् ह्य एव पौडेलः सम्पत् शुद्धिकरणानुसन्धान विभागे उपस्थापितः आसीत्। परह्य सुर्खेत जनपदात् निगृहीतः पौडेलः बांके जनपदात् स्थलमार्गेण ह्य ललितपुरस्य पुलचोकवर्तिनी सम्पत् शुद्धिकरणानुसन्धान विभागे आनीतः आसीत्। विभागेन सम्पत् शुद्धिकरणे अतिरिक्तानुसन्धानाय पौडेलः निगृहीतोऽस्ति इति ज्ञापितम् वर्तते। जलवायु विज्ञान विभागेन नेपाले वृष्टिज प्रणाल्याः प्रवेशः सन्नपि तराई क्षेत्रेषु उष्णवातस्य संकटः विद्यमानोऽस्ति इति ज्ञापितम् वर्तते। लुम्बिनी प्रदेशस्य हिमालयीय क्षेत्रस्य पर्वतीय क्षेत्रस्य च प्रायः भूभागेषु वृष्टेः सम्भावनायाम् सत्यमपि तराई क्षेत्रस्य कतिपयेषु स्थानेषु उष्णवातस्य प्रवहणम् जायमानमस्ति इति विभागेन ज्ञापितम् वर्तते। अत्रान्तरे अत्यधिकोष्णतायाः वर्धनस्य पश्चात् नेपाल गंजोपमहानगरपालिकया अद्यतः दिवसत्रयम् यावत् विद्यालयाः पिहिताः वर्तन्ते। अत्यधिकोष्णतायाः कारणेन पठन पाठने समस्यायाः उत्पन्नस्य पश्चात् अद्यतः परश्व यावत् विद्यालयाः पिहिताः वर्तन्ते इति उपमहानगरस्य शिक्षा महाशाखायाः प्रमुख गोर्ख बहादुर खत्री अज्ञापयत्। प्रमुख खत्री जलवायु विज्ञान विभागस्य परामर्शनस्य आधारेण दिवसत्रयम् विद्यालयस्तराणाम् पठन पाठन कार्यम् पीतमस्ति इति ज्ञापितवान् वर्तते। उपमहानगरपालिकया एतत्पूर्वमपि विद्यालयाः पीताः आसन्। सूचना संचार मन्त्री डा विक्रम तिमल सिन्हा लोकतन्त्रे जनता केन्द्रे भवतीत्यतः जनतायाः मनोविजयत्वेन कार्यसम्पादनाय बलम् ददाति। चितवन जनपदीय पत्राचार परिवहन सेवा विभागस्य यो निरीक्षणस्य पश्चात् मन्त्री डा तिमल सिन्हा जनतया हर्षानुभवनस्य पश्चादेव संस्थाम् प्रति जनानाम् विश्वासः वर्धिष्यते इति उदैरयत्। वन्य पशुनाम आक्रमणेन त्यक्ताभिभावकानाम मानवजन्य मानव वन्य जन्तु द्वन्द प्रभावितानाम च परिवाराणाम विद्यार्थिव्य छात्रवृत्ति प्रदत्ता अस्ति। कृषि वन पर्यावरण मन्त्री गीता चौधरी निकुञ्ज कार्यालय आयोजित कार्यक्रमे प्रभावित परिवाराणाम विद्यार्थिव्य प्रति विद्यार्थी 10,000 रूप्यकाणि प्रदत्तवती वर्धते। नेपाली कांग्रेस दलस्य सभापति गगन कुमार थापा सर्वकार निर्माणस्य अंकगणितस्य अपेक्षया जनताया मनोविजयस्य राजनीत्यै कांग्रेस दलेन प्राथमिकता प्रदातव्येति बलं ददाति। झापा जनपदस्य बिरतामोड स्थाने पूर्वीय द्युह आयोजिते जनपदीय कार्यकर्तृमेलने सभापति थापा स्पष्ट राजनीतिकाधारेण विना अन्यै दलैः गठबन्धनस्य पुनस्तस्यैव गठबन्धनस्य त्रोटनस्य च प्रवृत्तेः सीमित नेतृणाम् प्रधानमन्त्रिपदस्य आकांक्षायाः सत्तायाम् भागावण्टनस्य च राजनीत्या कांग्रेसदलम् दुर्बलम् सम्भूतमस्तीति प्रत्यपादयत्। कार्यक्रमे दलस्य उपसभापतिः विश्वप्रकाश शर्मा झापा जनपदस्य चायपदार्थोत्पादकोद्योगैः सह सम्बद्धानाम् समस्यानाम् समाधानम् कर्तुम् सर्वकारम् अन्वरुणत्। राष्ट्रिय सभाया विकासार्थिक विषय सुशासन समित्या सार्वजनिक पदाधिकारिणाम् पदमुक्ति सम्बद्धाया विशेष व्यवस्थायाः अध्यादेशस्य क्रियान्वयनस्य अनन्तरम् शिक्षा खेलकूद मन्त्रालयस्य अन्तर्गतानाम् निकायानाम् पदाधिकारिणाम् नियुक्तेः विषये मन्त्रालयेन सह विमृष्टम् वर्तते। समितेः ह्यस्तनोपवेशे मन्त्रालयस्य सचिव चूडामणि पौडेलः विश्वविद्यालयेषु आयोगेषु परिषत्सु समितिषु च पदाधिकारिणाम् नियुक्ति प्रक्रियाया कृते तीव्ररूपेण कार्यम् जायमानमस्तीति अज्ञापयत्। सचिवा पौडेला त्रिभुवन विश्वविद्यालयस्य उपकुलपति पदस्य कृते सम्प्रति अन्तर्वार्ता जायमानास्ति। चिकित्सा शिक्षायोगस्य कृते मन्त्रालयेन सर्वाम् प्रक्रियाम् प्रपूर्य नियुक्त्यर्थम् मन्त्रिपरिषदि परामृष्टमस्ति। नेपाल संस्कृत विश्वविद्यालयस्य काष्ठमण्डप विश्वविद्यालयस्य च पदाधिकारिणाम् प्रचयन प्रक्रिया अन्तिम चरणे प्राप्ता स्थिति च असूचयत्।